ये आकाशवाणी दिल्ली है। अब प्रस्तुत है माननीय प्रधानमंत्री श्री नरेंद्र मोदी की मन की बात कार्यक्रम का संस्कृत अनुवाद।
मम प्रियाः देशवासिनः नमस्कारः। अष्टादशोत्तर विंशति शततमस्य वर्षस्य इदं प्रथमं मन की बात इति प्रसारणम्। अपि च दिवसद्वय पूर्वमेव वयं गणतंत्र पर्वणः आयोजनम् अतितराम् उत्साहेन कृतवन्तः। इतिहासे प्रथमवारमेव एतत् जातं यत् दश संख्याकानां देशानां प्रमुखाः समारोहेऽस्मिन् समुपस्थिताः आसन्। मम प्रियाः देशवासिनः, श्रीमान् प्रकाश त्रिपाठी नरेन्द्र मोदी ऐप इत्यत्र दीर्घमेकं पत्रम् अलिखत् तथा च साग्रहं माम् अकथयत् यत् तस्य पत्रे लिखितान् विषयान् नूनमहं सन्दर्भेयम्। सः अलिखत् यत् फेब्रुवरी मासे प्रथमे दिने अन्तरिक्षं गतायाः कल्पना चावला इत्यस्याः पुण्यतिथि वर्तते। कोलम्बिया अन्तरिक्षयान दुर्घटनायां सा अस्मां त्यक्त्वा गतप्राणा जाता, परं च जगति सा लक्षशो यूनां प्रेरणादायिनी सिद्धा। अहं भ्रातुः प्रकाशवर्यस्य कार्तज्ञम् आवहामि यत् तेन स्वीये दीर्घे पत्रे कल्पना चावला प्रयाणम् आरम्भे एव सन्दर्भितम्। एतत्तु अस्माकं सर्वेषां कृते दुःखदं यदल्पीयसी एव वयसि सा दिवंगता, परं च सा स्वीय जीवनेन अशेष जगति विशेषेण च भारतस्य लक्षशो बालिकाभ्यः इदं समदिशत् यन्नारी शक्तिः असीमिता अस्ति। यदि इच्छा दृढसंकल्पः च स्तः किञ्चित् नूनं करणीयमिति दृढभावः अस्ति चेत् न किञ्चिदपि असंभवम्। एतद् दृष्ट्वा मनः प्रसीदति तराम् यदद्यत्वे भारते महिलाः प्रत्येकमपि क्षेत्रे द्रुतगत्या अग्रेसरन्ति, देशस्य गौरवं विवर्धयन्ति। प्राचीन कालात् अस्मदीये अस्मिन् देशे महिलानां सम्माननं, समाजे तासां स्थानं, तासां च योगदानं, एतत् सर्वं सततं सम्पूर्णमपि विश्वम् आश्चर्यचकितं करोति। भारतीय विदुषीनां दीर्घा परंपरा वर्तते। वेदानां ऋचानां आविष्करणे भारतस्य अनेकासां विदुषीनां ऋषिकाणां च सुबहु योगदानम् आसीत्। लोपामुद्रा, गार्गी, मैत्रेयी, अपाला चेत्यादयः न जाने कति कति नामानि सन्ति। अद्यत्वे वयं कन्यां रक्ष, कन्यां पाठय इति प्रयतामहे, परं च सहस्राब्देभ्यः प्राक् अस्मदीयेषु शास्त्रेषु स्कन्दपुराणे कथितं दशपुत्र समाकन्या दशपुत्रान् प्रवर्धयन् यत्फलं लभते मर्त्यः तल्लभ्यं कन्यकैकया, अर्थात् एका पुत्री दशपुत्रैः तुल्या भवति। दशभिः पुत्रैः यत् पुण्यं प्राप्यते एकया पुत्र्या तत् पुण्यं लभ्यते। तथ्यमिदं अस्मदीय समाजे नार्याः महत्त्वं दर्शयति। अत एव अस्मदीये समाजे नारी शक्ति स्वरूपा इति प्रतिष्ठापितम्। एषा नारी शक्तिः सम्पूर्णमपि देशं, अशेषं समाजं, कृष्णमपि कुटुम्बं च एकता सूत्रेण आबध्नाति। भवन्तु नाम ताः वैदिक कालिकाः विदुष्यः, लोपामुद्रा, गार्गी, मैत्रेयी प्रभृतयः, तासां विद्वत्ता वा अक्का, महादेवी, मीराबाई प्रभृतीनां ज्ञानं वा भक्तिः, भवतु वा सा अहिल्याबाई होल्करस्य शासनव्यवस्था, आहोसित भवतु वा सा राज्ञ्याः लक्ष्मीबाई वीराङ्गनायाः वीरता, नारी शक्तिः सर्वदेव अस्मान् अनारतं प्रेरयति स्म, सततं च प्रेरयति, देशस्य मानं सम्माननं च विवर्धयन्ती प्रवर्तते। श्रीमान् प्रकाश त्रिपाठी इतः परमपि अनेकानि उदाहरणानि प्रादात्। सः अलिखत् यदस्मदीया साहसिका प्रतिरक्षा मन्त्रीवर्या निर्मला सीतारमण महाभागा यया सुखोई 30 इति योद्धृ विमानेन उड्डीतं तच्च नूनं प्रेरणादायी। सः वर्तिका जोशी इत्यस्याः नेतृत्वे भारतीय नौसेनायाः महिला सदस्य वृन्दस्य INSV तरिणी द्वारा अशेष विश्वस्य परिक्रमा विषयम् उल्लेखितवान्। भावना कंठ, मोहना सिंह, अवनी चतुर्वेदी इति तिस्रः साहसिक महिलाः याः योद्धृ विमान चालिकाः संजाताः सांप्रतं च सुखोई 30 विमानेषु प्रशिक्षन्ते। क्षमता वाजपेयी वर्यायाः नेतृत्वे ऑल विमेन क्रू इति सर्वाभिरपि महिला सदस्याभिः समन्वितेन एयर इंडिया बोइंग जेट विमानेन दिल्लीतः अमेरिका देशस्य सैन फ्रांसिस्को नगरं यावत् ततश्च परावृत्य दिल्ली पर्यन्तं उड्डीतम्। भवता सम्यक् कथितम् यदद्यत्वे नारी प्रत्येकमपि क्षेत्रे न केवलम् अग्रेसरति परं च नेतृत्वमपि करोति। अधुना अनेकानि तादृंशी क्षेत्राणि सन्ति यत्र सर्वप्रथमम् अस्मदीया नारी शक्तिः किञ्चित् नाविन्यं प्रमाणयति, अभिनवं कीर्तिमानं प्रतिष्ठापयति। विगतेषु दिनेषु माननीयः राष्ट्रपति महोदयः नवीन प्रयासं प्रारभत। राष्ट्रपति महोदयः असाधारण महिलानां वृन्दमेकम् अमिलत् याः स्वस्वक्षेत्रेषु सर्वप्रथमं किमपि उत्कृष्टम् अकुर्वन् नूतनं कीर्तिमानं प्रतिष्ठापितवत्यः। देशस्य एताः महिलाः सन्ति फर्स्ट फीमेल मर्चेंट नेवी कैप्टन इति नौसेनायाः प्रथमा पोतचालिका, पैसेंजर ट्रेन इति यात्री रेलयानस्य प्रथमा महिला चालिका, रेलयानस्य प्रथमा महिला चालिका, फायर फाइटर इति अग्निशमन यानस्य प्रथमा महिला चालिका, प्रथमा महिला बसयान चालिका, अंटार्कटिका इति दक्षिणीय ध्रुवं संप्राप्ता प्रथमा महिला, एवरेस्ट इति सर्वोच्च पर्वत शिखरम आरूढवती प्रथमा महिला, एवं हि प्रत्येकमपि क्षेत्रे फर्स्ट लेडीज इति अस्मदीयाः प्रथमाः नारीशक्तयः समाजस्य रूढिवादिताम् अपाकुर्वत्यः असाधारणाः उपलब्धिः अवाप्नुवन् कीर्तिमानानि च प्रतिष्ठापितवत्यः। एताः इदं प्रदर्शितवत्यः यत् कठोरश्रमं निष्ठां दृढसंकल्पं चाधृत्य सर्वाः अपि बाधाः विघ्नान् चातिक्रम्य नूनं नवीनं मार्गं उपकल्पयितुं शक्यते। तादृशः नवीनः मार्गः यः न केवलं स्वीय समकालीनानां जनानां कृते अपि तु भावि प्रजानां कृतेऽपि प्रेरकः स्यात्, नूतनया शक्त्या नवीनेन च उत्साहेन तान् आपूरयेत्। एताः समुपलब्धवतीः प्रथमाः महिलाः आलक्ष्य एकं पुस्तकमपि सज्जीकृतमस्ति येन हि अशेष देशः आसाम नारी शक्ति नाम विषये अवगताः स्युः, एतासाम जीवनेभ्यः कार्येभ्यश्च प्रेरिताः भवेयुः। पुस्तकमिदं नरेंद्र मोदी वेबसाइट इत्यत्र ई बुक रूपेणापि समुपलभ्यते। साम्प्रतं देशे समाजे च संजायमाने सकारात्मके परिवर्तने देशस्य नारी शक्तेः महत्वपूर्णा भूमिका वर्तते। अद्य वयं यदा महिला शक्तीकरणस्य चर्चां कुर्वन्तः स्मः तदा अहमेकं रेलास्थानकं सन्दर्भयितुमीहे। रेलास्थानकं महिला शक्तीकरणं च भवन्तः नूनं विचारयिष्यन्ति यद् अनयोः मध्ये कः सम्बन्धः। मुम्बय्याः माटुंगा स्टेशन इति रेलास्थानकं भारतस्य प्रप्रथमं रेलास्थानकं वर्तते यत्र सर्वाः अपि कर्मकराः महिलाः एव सन्ति। सर्वेषु विभागेषु महिला कर्मचारिण्यः आहत्य 40+ महिलाः सन्ति। ऐषमः गणतंत्र दिवसीयानि सामूहिक प्रयाणानि दृष्ट्वा ट्विटर इत्यत्र अन्येषु च सोशल मीडिया इति सामाजिक माध्यमेषु जनैः लिखितं यदत्र मुख्यम् आकर्षणम् आसीत् BSF बाइकर कंटिंजेंट, सीमा सुरक्षा बलस्य बाइक यान चालिकानां वृन्दं, यस्मिन् सर्वाः अपि महिला चालिकाः आसन्। एताः साहसपूर्ण प्रयोगं कुर्वन्त्यः आसन्, अपि चेदं दृश्यं वैदेशिकान् अतिथीन् अपि आश्चर्यचकितान् करोति स्म। शक्तीकरणं हि आत्मनिर्भरतायाः एव अनन्यतमं रूपं, साम्प्रतम् अस्मदीया एषा नारी शक्तिः नेतृत्वं करोति, आत्मनिर्भरा भवति। सद्यः स्मरामि यत् छत्तीसगढस्य अस्मदीयाः आदिवासी महिलाः आश्चर्यम् अजनयन्। एताः नूतनोदाहरणं प्रस्तुतवत्यः। आदिवासी महिलानां यदा उल्लेखः भवति तदा अस्माकं सर्वेषां मनस्सु एकं सुनिश्चितं चित्रम् उत्पद्यते, यत्र अरण्यं भवति, पादमार्गो भवति, तस्मिन् काष्ठभारवाहिन्यः महिलाः प्रचलन्त्यः दृश्यन्ते। परं च छत्तीसगढस्य अस्मदीयाः आदिवासी नार्यः अस्मदीयाः एषा नारी शक्तिः देशस्य सम्मुखम् एकं नवीनं चित्रं व्यरचयत्। छत्तीसगढस्य दन्तेवाड़ा क्षेत्रं यद्धि माओवाद प्रभावितं वर्तते। हिंसा अत्याचरणं बम इति विस्फोटकं भुशुंडिका लघुभुशुंडिका माओवादिनः एतानि आधृत्य भयानकं परिवेशं निर्मितवन्तः। एतादृशेषु भयावहेषु क्षेत्रेषु आदिवासी महिलाः ईरिक्षा इति चक्रिकायानानि चालयित्वा आत्मनिर्भराः भवन्ति। अल्पीयसि कालखण्डे अनेकाः महिलाः अमुना कार्येण संयुताः जाताः। एवं हि लाभत्रयं सिद्ध्यति। एकतः स्ववृत्तितया एता सशक्ताः भवन्ति, अपरतश्च अमुना कार्येण माओवाद दुष्प्रभावितस्य क्षेत्रस्य परिदृश्यमपि परिवर्तते, तथा च युगपदेव अनेन पर्यावरण संरक्षणस्य कार्यमपि सबलं भवति। अत्रत्यं जनपद प्रशासनमपि प्रशंसार्हं वर्तते, येन अनुदानादिकम् उपलम्भयित्वा आभ्यः प्रशिक्षणादिकमपि प्रदीयते। एवं हि जनपद प्रशासनेन आसां महिलानां सफलतावाप्तौ महत्वपूर्णा भूमिका निर्व्यूढा अस्ति। वयं पुनः पुनः शृण्वन्तः स्मः यत् जनाः कथयन्ति, कुछ बात है ऐसी कि हस्ती मिटती नहीं हमारी, किंचित वैशिष्ट्यमस्ति तादृशं यदस्तित्वम अविनाशी अस्मदीयम्। तत् किमस्ति? तदस्ति फ्लेक्सिबिलिटी, आनम्यता, परिवर्तनशीलत्वं, रूपांतरत्वं। यद्धि काल बाह्यमस्ति तत् त्याज्यं, यद्धि आवश्यकं तस्य परिष्कारः स्वीकर्तव्यः। अपि च अस्मदीय समाजस्य विशेषता वर्तते आत्म परिष्कारस्य अनारतम प्रयासः, सेल्फ करेक्शन। एषा अस्ति भारतीया परंपरा, एषा अस्माकं संस्कृतिः, अस्मभ्यं रिक्तत्वेन अधिगता अस्ति। कस्यचन अपि जीवन समाजस्य अभिज्ञानं भवति तस्य सेल्फ करेक्टिंग मेकनिज्म, आत्म परिष्कारस्य तंत्रम्। सामाजिक कुप्रथाः कुरीतिश्च विरुद्ध्य सहस्राब्देभ्यः अस्माकं देशे व्यक्तिगतेषु सामाजिकेषु च स्तरेषु सततं प्रयासाः भवन्तः आसन्। नातिचिरं बिहार राज्ये रोचकः प्राथमिकः प्रयासः अभवत्। राज्ये सामाजिक कुरीतिः समूलं उन्मूलयितुं 13,000 किलोमीटर मिताधिका विश्वस्य दीर्घतमा मानव श्रृंखला ह्यूमन चैन विरचिता। अमुना अभियानेन बाल विवाह यौतुक प्रथा सदृशीः कुरीतिः विरुद्ध जनेषु जागृतिः प्रसारिता। यौतुक बाल विवाह सदृशीः कुरीतिः विरुद्ध अशेष राज्यं योद्धुं संकल्पितवत्। आबाल महिला वृद्धाः युवानश्च सोत्साहम् अस्मिन् अभियाने सहभागिनः आसन्। पटना नगर्याः ऐतिहासिकात् गांधी मैदान स्थलात् आरभ्य मानव श्रृंखला एषा राज्यस्य सीम प्रदेशं यावत् अविच्छिन्न रूपेण संकलिता जाता। समाजस्य सर्वेपि जनाः समुचित रूपेण विकासस्य लाभान् अवाप्नुयुः इति कृत्वा एतद् आवश्यकं यदस्माकं समाजः एताभ्यः कुरीतिभ्यः मुक्तः स्यात्। आगच्छन्तु वयं सर्वे मिलित्वा समाजात् एताः कुरीतिः अपास्तुं प्रतिज्ञां करवाम, तथा च एकं नवीनं शक्तं सबलं समर्थं च भारतं निर्मातुं प्रयतेम। अहं बिहारस्य जनान्, राज्यस्य मुख्यमन्त्रिणं, तत्रत्यं प्रशासनं, मानव श्रृंखलायां सहभागिनः प्रत्येकमपि जनान् च अभिनन्दामि, वर्धापयामि यत् ते समाज कल्याण दिशि विशिष्टां व्यापिनीं च प्रक्रियाम् आरभन्त। मम प्रियाः देशवासिनः, कर्णाटकस्य मैसूरतः श्रीमान् दर्शनः माई गोव इत्यत्र अलिखत्, तस्य पितुः उपचारार्थं प्रतिमासं 6,000 रूप्यकात्मकः व्ययः भवति स्म। सः पूर्वं प्रधानमन्त्री जनौषधि योजना विषये नैव जानाति स्म, परं च सम्प्रति यदा सः जनौषधि केन्द्र विषये सूचनाम् अलभत, ततश्च औषधि क्रयणं व्यदधात्, ततः प्रभृति एष व्ययः प्रतिशतं 75% अपचितः। सः वाञ्छति यदहं मन की बात प्रसारणे एतद्विषये उद्घोषयेयं, येन अधिकाधिकाः जनाः एतद्विषये अवगताः स्युः, अमुना च लाभान्विताः भवेयुः। विगतेभ्यः कतिपयेभ्यः दिनेभ्यः अनेके जनाः एतद्विषये मां लिखन्ति स्म, सूचयन्ति स्म। अहमपि सामाजिक संचार माध्यमेषु दृष्टवान् यद् अनेके जनाः अनया योजनया लाभान्विताः अभूवन्। तथा च यदा एतादृशी सूचना अवाप्यते तदा हर्ष प्रकर्षः अनुभूयते, गभीरः संतोषः जायते। एतदपि मह्यम् अतितराम् अरोचत यत् श्रीमान् दर्शनः स्वीय मनसि विचारमिमम् अनुभूतवान् यत् यत्किमपि तेन लब्धं तद् अन्येऽपि अवाप्नुयुः। अस्याः योजनायाः उद्देश्यमस्ति स्वास्थ्य परिचर्या सुलभा स्यात्, अपि च ईज ऑफ लिविंग, जीवनस्य सरलता प्रोत्साहिता भवेत्। जनौषधि केन्द्रेषु प्राप्याः औषध्यः आपणेषु विक्रियमाणाभ्यः चिह्निताभ्यः औषधिभ्यः प्रायेण प्रतिशतं 50 90 न्यूनार्घाः भवन्ति। अमुना जनसामान्यं विशेषेण प्रतिदिनं औषधिं सेवमानानां वरिष्ठ नागरिकाणां कृते अतितराम् आर्थिकं साहाय्यं प्राप्यते, भूरिशः सञ्चयो भवति। साम्प्रतम् अशेष देशे 3,000+ जनौषधि केन्द्राणि स्थापितानि सन्ति। अनेन न केवलम् औषधयः न्यूनार्घाणि प्राप्यन्ते, अपि तु वैयक्तिक उद्यमिनां कृतेऽपि वृत्तितायाः नवीनाः अवसराः अवाप्यन्ते। प्रधानमन्त्री भारतीय जनौषधि केन्द्रेषु चिकित्सालयेषु च अमृत संग्रहेषु एताः न्यूनार्घाः औषधयः लभ्यन्ते। अत्र इदमेव उद्दिष्टं यत् देशस्य निर्धनतमाः जनाः गुणवत्तायुतां सुलभां न्यूनार्घां च स्वास्थ्योपचर्याम् अवाप्नुयुः, येन हि स्वस्थस्य समृद्धस्य च भारतस्य निर्माणं सम्भवं भवेत्। मम प्रियाः देशवासिनः, महाराष्ट्रस्य श्रीमान् मंगेशः नरेन्द्र मोदी मोबाइल ऐप इत्यत्र चित्रमेकं प्राहिणोत्। तच्चित्रं तादृशमासीत् यन्मम ध्यानं सहसा तदाकृष्टं जातम्। तस्मिन् पौत्रः निजपितामहेन साकं क्लीन मोर्ना रिवर इति स्वच्छताभियाने सहभागित्वम् आवहति। अहं ज्ञातवान् यत् अकोला क्षेत्रीयाः नागरिकाः स्वच्छ भारताभियानस्य अन्तर्गतं मोर्ना नद्याः स्वच्छीकरणार्थं स्वच्छताभियानम् आयोजितवन्तः। मोर्ना नदी पूर्वम् आवर्षं सजला वहति स्म, साम्प्रतं सा ऋतुनिष्ठा सञ्जाता। अपरो वेदना विषयः आसीत् यदेषा नदी पूर्णरूपेण आरण्यकैः ग्रासैः जलकुम्भिभिः समाकीर्णा सञ्जाता। नद्याम् अस्याः तटप्रदेशे च प्रभूतः अवकर प्रक्षेपः क्रियते स्म। एका एक्शन प्लान इति कार्ययोजना सज्जीकृता, तथा च मकर संक्रान्तितः एकदिन पूर्वं जनवरी मासे 3 मिशन क्लीन मोर्ना इत्यस्य प्रथमचरणस्य अन्तर्गतं किलोमीटर चतुष्कस्य क्षेत्रे 14 स्थानेषु मोर्ना नद्याः तटम् अभितः स्वच्छीकृतम्। मिशन क्लीन मोर्ना इत्यस्याः पुण्यकार्ये अकोला क्षेत्रस्य 6,000+ नागरिकाः, 100+ NGOs इति स्वैच्छिक संघटनानि, महाविद्यालयाः, विद्यार्थिनः, बालाः, वृद्धाः, मातरः, भगिन्यः सर्वेपि अत्र सहभागित्वम् आवहन्। ऐषमः जनवरी मासे 20 एतत् स्वच्छताभियानं सततं प्रवर्तितं, तथा च अहं सूचितः यत् यावदवधि मोर्ना नदी पूर्णतया स्वच्छा नैव भवति, अभियानमिदं प्रतिशनिवासरं प्रातः प्रवर्तिता। एतत् प्रमाणयति यत् जनः यदि किमपि कर्तुं दृढसंकल्पं करोति चेत् तदा किञ्चिदपि अशक्यं नास्ति। जनान्दोलनमाध्यमेन बृहत्तमानि परिवर्तनानि कर्तुं शक्यन्ते। अहम् अकोलावासिनः, अत्रत्यं जनपद नगर निगमयोः प्रशासने च एतत् कार्यं जनान्दोलन रूपेण प्रवर्तयितुं संलग्नान् सर्वान् नागरिकान् च तेषाम् एषां प्रयासानां कृते भूरिशः वर्धापयामि, अपि च कामये यत् भवताम् एते प्रयासाः देशस्य अन्येषां जनानां कृतेऽपि प्रेरणादायिनो भवेयुः। मम प्रियाः देशवासिनः, एतेषु दिनेषु भवन्तः अपि पद्म पुरस्कार विषयिणीं चर्चां शृण्वन्ति इति मन्ये। वार्तापत्रेषु दृश्यवाहिनीषु चापि विषयेऽस्मिन् ध्यानमाकृष्यते। परं च यदि किञ्चित् सूक्ष्मेक्षिकया पश्यन्तु चेत् भवन्तः गर्वम् अनुभविष्यन्ति। गर्वस्य विषयोऽयं यत् कियन्तो महान्तो जनाः अस्माकं मध्ये विराजन्ते, तथा च स्वाभाविकरूपेण अस्य विषयस्यापि गौरवं भविष्यति यत् केन प्रकारेण अद्यत्वे अस्माकं देशे सामान्यजनाः काञ्चिदपि अभिसंस्तुतिं विना उच्छ्रिततरं शिखरम् अधिरोहति। प्रतिवर्षं पद्म पुरस्काराणां प्रदान परम्परा सततं प्रवर्तते। विगत वर्षत्रये एतद् विषयिणी सम्पूर्णा अपि प्रक्रिया परिवर्तिता अस्ति। इतः परं कश्चन अपि नागरिकः कञ्चन अपि जनं नॉमिनेट इति नाम्ना अभिसंस्थोतुम् अर्हति। सम्पूर्णापि प्रक्रिया ऑनलाइन इति सद्यस्का जाता, अतः एषा पारदर्शिता समन्विता संजाता अस्ति। एवं हि एतेषां पुरस्काराणां चयन प्रक्रियायाः पूर्णः रूपांतरः जातः। भवतामपि अवधानं स्यात् जातं यत् अतितरां सामान्य जनाः अपि पद्म पुरस्कारान् लभन्ते। तादृशेभ्योऽपि जनेभ्यः पद्म पुरस्काराः प्रदीयन्ते ये सामान्यतया महानगरेषु वार्तापत्रेषु दृश्यवाहिनीषु समारोहेषु च नावलोक्यन्ते। अधुना पुरस्कार प्रदानार्थं जनस्य अभिज्ञानं नैव तस्य कार्यस्य महत्त्वं विवर्धते। श्रीमान् अरविन्द गुप्ता इत्यस्मै पद्म पुरस्कार प्राप्तेः अनन्तरमेव स्यात् प्रथमवारं भवता तस्य नाम श्रुतं भवेत्। वृत्तमिमं ज्ञात्वा भवन्तः प्रसन्नताम् अनुभविष्यन्ति यत् IIT कानपुरस्य प्राक्तनः छात्रः श्री अरविन्दः बालानां कृते क्रीडनकानि विनिर्मातुं स्वीयं सम्पूर्णमपि जीवनं यापितवान्। असौ विगत दशक चतुष्कात् अवकर संग्रहात् क्रीडनकानि विनिर्माति, येन बालेषु विज्ञानं प्रति जिज्ञासा प्रवर्धेत। तस्य प्रयत्नः अस्ति यत् बालाः निरर्थक वस्तुभ्यः वैज्ञानिक प्रयोगान् प्रति प्रेरिताः भवेयुः। एतदर्थम् असौ अशेष देशस्य 3,000+ विद्यालयेषु गत्वा 18 भाषासु निर्मितानि चलचित्राणि अपि प्रदर्श्य बालान् प्रेरयति। कीदृशम् अद्भुतं जीवनं, कीदृशम् अद्भुतं समर्पणम्। एतादृशी एव कथा कर्णाटकस्य सितावा जोद्दति इत्यस्याः अस्ति। एषा महिला शक्तिकरणस्य देवी इति सगौरवम् उच्यते। विगत दशकत्रयात् बेलागवी क्षेत्रे एषा असंख्य महिलानां जीवन परिवर्तने महद्योगदानम् अकरोत्। एषा 7 आयुषी एव स्वयं देवदासी रूपेण आत्मानं समार्पयत्। परं च पुनः देवदासीनां कल्याणार्थं स्वीयं क्रिस्तमपि जीवनम् अर्पितवती। एतावदेव नैव सा दलित महिलानां कल्याणार्थमपि अभूतपूर्व कार्यम् अकरोत्। भवद्भिः मध्य प्रदेशस्य भज्जूश्यामस्य नाम श्रुतं स्यात्। श्रीमान् भज्जूश्यामस्य जन्म अतितराम् निर्धन कुटुम्बे आदिवासी परिवारे अजायत। असौ जीवनयापनाय सामान्य वृत्तिं करोति स्म, परं च अस्मै पारम्परिक आदिवासी चित्रकलायां महती रुचिः आसीत्। साम्प्रतम् अस्याः एव रेखाङ्कनस्य गहनरुचेः कारणात् न केवलं भारते अपि तु अशेष जगति तस्य सम्माननं वर्तते। नीदरलैंड्स, जर्मनी, इंग्लैंड, इटली सदृशेषु अनेकेषु देशेषु तस्य चित्राणां प्रदर्शनी आयोजिता। विदेशेषु भारतस्य यशोवर्धकस्य भज्जूश्यामस्य प्रतिभा अभिज्ञाता तथा च तस्मै पद्मश्री सम्माननम् उपायनीकृतम्। केरलस्य आदिवासी महिला लक्ष्मी कुट्टी इत्यस्याः कथां श्रुत्वा भवन्तः सुखदम् आश्चर्यम् अनुभविष्यन्ति। लक्ष्मी कुट्टी कल्लारे शिक्षिका अस्ति तथा च साम्प्रतमपि गहनारण्येषु आदिवासी क्षेत्रे तालपत्रैः विनिर्मिते कुटीरे निवसति। सा स्वीय स्मृत्याधारेण एव 500 वनस्पतीनाम् औषधीः व्यरचयत्। सर्पदंशस्य उपचारार्थम् उपयुज्यमानायाः औषधेः निर्माणे तस्याः प्रावीण्यं सुसिद्धम्। लक्ष्मीवर्या वनस्पतीय औषधानां निजज्ञानकारणात् अनारतं समाजं सेवते। अज्ञात नाम्न्याः अस्याः अभिज्ञानं कृत्वा समाजे अनया अनुष्ठिताय योगदानाय सा पद्मश्री इति अलङ्करणेन सम्मानिता अस्ति। अद्य एकस्य अपरस्य नाम्नः समुल्लेखात् नाहम् आत्मानं वारयितुं शक्नोमि। पश्चिम बंगालस्य 75 सुभासिनी मिस्त्री इत्यस्याः नाम, सा पुरस्कारार्थं वृता अस्ति। सुभासिनी मिस्त्री तादृशी महिला अस्ति या चिकित्सालयस्य निर्माणार्थम् अपरेषां गृहेषु भाण्डानि स्वच्छीकृतवती, शाकादिक्रयं च व्यदधात्। यदा सा 23 आसीत् तदा उपचारस्य अभावकारणात् अस्याः पत्युः मृत्युः अभवत्। एषा एव घटना ताम निर्धनानां कृते चिकित्सालय निर्माणार्थं प्रेरयत्। सम्प्रति अस्याः कठोर श्रमेण विनिर्मिते चिकित्सालये परसहस्राणां निर्धनानां निःशुल्कम् उपचारो विधीयते। दृढमहं विश्वसिमि यदस्माकं बहुरत्ना वसुंधरायां तादृंशी अनेकानि नररत्नानि सन्ति, असंख्यानि नारीरत्नानि च सन्ति, तं तां च नैकोऽपि जानाति, न वा तेषां सम्यक् अभिज्ञानं वर्तते। एतादृशानां जनानां अभिज्ञानं न भवति चेत् समाजस्यापि हानिः भवति। पद्म पुरस्कारो नाम माध्यमम् अस्ति, परं च अहं देशवासिभ्योऽपि निवेदयामि यद् अस्मान् परितः समाजस्य कृते समर्पित जीवनाः समाजार्थं निष्ठावन्तः कामपि काञ्चिदपि विशेषतां संधारयन्तः आजीवनं कार्यानुष्ठातारः लक्ष लक्षाधिकाः जनाः सन्ति, नूनं कदाचिदपि ते समाज धारायां समावेशनीयाः। न ते मान सम्मानार्थं कार्याणि आचरन्ति, परं च तेषाम् एभिः कार्यैः वयं प्रेरिताः भवामः। कदाचित् विद्यालयेषु कदाचित् महाविद्यालयेषु च एतादृशा महनीय जनाः समामन्त्रणीयाः, तेषां च अनुभवाः श्रवणीयाः, पुरस्कारेभ्योऽपि अग्रे समाजेऽपि केचन प्रयासाः भवेयुः। मम प्रियाः देशवासिनः, प्रतिवर्षं वयं जान्युवरी मासे नवमे दिनाङ्के प्रवासी भारतीय दिवसम् आमन्यामहे। अयमेव दिवसः अस्ति यदा पूज्यः महात्मा गान्धी दक्षिण अफ्रीकातः भारतं प्रत्यागतः। अस्मिन्नेव दिने वयं भारते विश्वस्मिन् विश्वे च निवसतां भारतीयानां मध्ये अभिन्न बन्धनस्य उत्सवम् आयोजयामः। ऐषमः प्रवासी भारतीय दिवसावसरे वयं कार्यक्रममेकम् आयोजितवन्तः, यत्र विश्वस्मिन् विश्वे निवसन्तो भारतीय मूलस्य सर्वेपि सांसदाः महापौरा चामन्त्रिताः आसन्। भवन्तः इदं श्रुत्वा प्रसन्नताम् अनुभविष्यन्ति यत् तस्मिन् कार्यक्रमे मलेशिया, न्यूजीलैंड, स्विट्जरलैंड, पुर्तगाल, मॉरिशस, फिजी, तंजानिया, केन्या, कनाडा, ब्रिटेन, सुरीनाम, दक्षिण अफ्रीका, अमेरिकातः अपरेभ्योऽपि देशेभ्यश्च यत्र यत्र अस्मदीयाः महापौराः मूल भारतीयाः सांसदाः च सन्ति ते सर्वेपि सहभागित्वम् आवहन्। प्रसीदामि तरां यद् विभिन्नेषु देशेषु निवसन्तो भारतीय मूलाः जनाः तां देशान् तु सेवन्ते एव, युगपदेव ते भारतेन साकमपि स्वीयान् दृढतरान् सम्बन्धान् सन्धारयन्ति। ये यूरोपस्य भिन्न भिन्नेषु देशेषु अस्माकं मूल भारतीयाः निवसन्ति तेषु केचन साइबर सिक्योरिटी इति क्षेत्रे कार्याणि कुर्वन्ति, केचन आयुर्वेद क्षेत्रे समर्पिताः सन्ति, अपरे स्वीय संगीत माध्यमेन समाजस्य मनांसि रंजयन्ति, इतरे च केचन स्वीय ललित कविता रचनाभिः सहृदयान् आनंद संदोहेन आप्लावयन्ति, केचन क्लाइमेट चेंज इति जलवायु परिवर्तन विषये अनुसंधानं विदधति, अन्ये च भारतीय ग्रंथान् आश्रित्य कार्यनिरताः सन्ति, कश्चन भारवाही यानं चालयित्वा गुरुद्वारा निर्माणम् अकरोत्, अपरेण च केनचित् मस्जिद् निर्माणं कृतम्। अर्थात् यत्र कुत्रापि अस्मदीयाः जनाः सन्ति ते तत्रत्यां धरां येन केनापि प्रकारेण सुसज्जितां कृतवन्तः। अहं धन्यवादान् वितरामि यूरोपीय संघस्य अस्य उल्लेखनीय कार्यस्य कृते, भारतीय मूलस्य जनानाम् अभिज्ञानार्थम् अपि च अमुना माध्यमेन भारतस्य नागरिकेभ्यः अपि सूचना प्रदानार्थं, तथा च एतन्माध्यमेन अशेष जगतः जनान् सूचयितुमपि। जनवरी मासे 33 दिने पूज्य बापूवर्यस्य पुण्यतिथि वर्तते, यः अस्मान् सर्वान् अभिनवं मार्गं प्रादर्शयत्। दिवसमेनं हुतात्मदिनत्वेन वयम् आयोजयामः। एतस्मिन् दिने वयं देशस्य रक्षायै हुतात्मभ्यः महद्भ्यः प्रातः 11 श्रद्धाञ्जलिम् अर्पयामः। शान्तेः अहिंसायाश्च मार्गः एव बापू महात्मनः अनन्यमार्गः आसीत्। भवतु नाम भारतमिदं वा जगत्, स्यादिदं कुटुम्बं वा एकाकी जनो वा सकलः समाजः, पूज्य बापूवर्यः येषां सिद्धान्तानाम् आदर्शानां च कृते जीवति स्म, पूज्य बापुः यत्किमपि अस्मान् समदिशत् तत्सर्वम् अद्यापि अतितराम् उपयोगी वर्तते। ते केवलं सिद्धान्ताः एव नैवासन्, वर्तमान कालेपि वयं पदे पदे पश्यामः यद् बापूवर्यस्य सन्देशः कियान् समीचीनः अस्ति। यदि वयं संकल्पयेम यद् बापूवर्यस्य मार्गम् अनुसरेम, यावन्तमपि प्रचलितुं शक्नुमः प्रचलेम तदा एतस्मात् समुचिततरः कः अन्यः श्रद्धाञ्जलिः भविता। मम प्रियाः देशवासिनः, अष्टादशोत्तर द्विसहस्रतम वर्षार्थं मङ्गलकामनाः वितीर्य अहम् अत्रैव विररामि। भवद्भ्यः सर्वेभ्यः मङ्गलकामनाः, भूरिशो धन्यवादाः, नमस्कारः।
अभी आप सुन रहे थे माननीय प्रधानमंत्री श्री नरेंद्र मोदी की मन की बात कार्यक्रम का संस्कृत अनुवाद।